हरिवंश पुराण से यामेव रजनीं कृष्णो यज्ञे वृष्णिकुले प्रभु तामेव रजनीं कन्यां यशोदापि विजायत नंदगोपस्य भार्या वै कंसगोपस्य सम्मता तुल्यकालं हि गर्भिण्यौ यशोदा देवकी तथा दैवक्य जनयद्विष्णुं यशोदा तां तु कन्यकां मुहूर्ते भिजिते प्राप्ते सार्धरात्रे विभूषिते सागराः समकंपन्त चेलुश्च धरणीधरा जज्जल्वश्चाग्नयः शान्ता जायमाने जनार्दने शिवाः संप्रभुर्वाता प्रशान्तम् अभवद्रजः ज्योतिषीं च प्रकाशन्त जायमाने जनार्दने अनाहता दुन्दवयो देवानां प्राणदन्दिवे आकाशात् पुष्पवर्षं च ववर्ष त्रिदिवेश्वरः गीभिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनं महर्षयः स गन्धर्वा उपतस्थो सहाप्सराः वसुदेवस्तु संग्रह्य दारकं क्षिप्रमेव तु यशोदायां गृहं भीतो विवेश सुतवत्सलः यशोदायास्तु विज्ञातं तत्र निक्षिप्य दारकं ग्रह्यतां दारिकां चापि देवकी शयने न्यसत् परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः वसुदेवः कृतार्थो वै निर्जगाम निवेशनात्।